एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रतिनिधि सभया नेपालस्य भूम्या लिम्पियाधुरा लिपुले कालापानी सहितया नेपालस्य समाविष्ट मानचित्रम् नेपालस्य संविधान संशोधन विधेयकम् द्वितृतीयांशादपि अधिकमतेन पारितीकृतम् वर्तते। प्रतिनिधि सभायाः गतदिने उपविष्टे उपवेशे एतद् विक्रमाद्यम् संविधान द्वितीय संशोधन विधेयकम् द्वितृतीयांशादपि अधिकमतेन पारितम् इति सभामुख अग्निप्रसाद सापकोटाहुदा घोषयत्। तत्पूर्वं संविधान संशोधन विधेयक विषयके विमर्शने उत्थापितान् प्रश्नान् उत्तरयन्ती विधि न्याय संसदीय विषय मन्त्री डाक्टर शिवमाया तुम्बहाम्फे विधेयकम् आश्रित्य विहितेन अनुकूल विमर्शनेन नेपाली जनतायाः सार्वभौमाधिकारः इतोऽपि उन्नीतः इति चर्चयन्ती नेपालस्य अखण्डतायाः राष्ट्रियैकतायाश्च कृते संसद सदैव एकताबद्धास्तीति सन्देशः प्रदत्तो स्थिति अभासत। उपस्थितै सर्वैः सांसदैः नेपालस्य संविधानस्य तृतीयायाम् अनुसूच्यां विद्यमानस्य नेपालस्य प्रतीकचिह्नस्य अभ्यन्तरे स्थितस्य नेपालस्य मानचित्रस्य परिवर्तनकारिणः एतद् विक्रमाब्दीयस्य नेपालस्य संविधान द्वितीय संशोधन विधेयकस्य पक्षे मतदानं विहितम् आसीत्। एतस्य विधेयकस्य समर्थनपक्षे अष्टपञ्चाशद् अधिक शतद्वयं मतम् विपक्षे मतस्य अप्रधानपक्षे च शून्यं मतम् व्यक्ते आस्ताम्। प्रतिनिधिसभायाः पञ्चसप्तत्यधिक शतद्वयस्य सांसदानां मध्ये ह्यस्तनोपवेशे अष्टपञ्चाशदधिक शतद्वयं सांसदाः उपस्थाय मतदानं व्यदधुः। विधेयकस्य पारितीकरणात् प्राक् विधेयक विषयके विमर्शने भागं गृह्णन् नेपाल कम्युनिष्ट पार्टी नेकपादलस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः अवदत् संविधानस्य संशोधनेन राजतन्त्रेण हापितायाः भूमेः गणतन्त्रेण प्रत्यावर्तनात्मिका महत्वपूर्णा अवस्था प्राप्ता वर्तते। अध्यक्ष प्रचण्ड पश्चात्तनसमये सहमत्या राष्ट्राय गतिप्रदानात्मिका परम्परा विकास्यमानास्तीति चर्चयन् नेपालस्य भूमेः प्रत्यावर्तनस्य सन्दर्भे संविधान संशोधन सदृशं संवेदनशील विषयं सर्वसम्मत्या पारितीकृत्य राष्ट्रियेषु ऐतिहासिकेषु च प्रकरणेषु नेपालिनः सदैव एकत्र तिष्ठाम इति सन्देशः पुनः एकवारं विश्वस्मै प्रदत्तो स्थिति अवोचत्। अध्यक्ष प्रचण्डः हापितायाः भूमेः प्रत्यावर्तनात्मकेन भारतेन सह राजनीतिकरूपेण कूटनीतिकरूपेण च विमृश्य विवादस्य स्थायी समाधानकारिणा च लक्ष्येण सह अग्रे वर्धितम् अस्तीति अब्रवीत्। अध्यक्ष प्रचण्डः राष्ट्रिय प्रकरणेषु एकतायै सर्वे एकताबद्धा स्मः इति भासमाणः कोरोना विरोधिनि युद्धेऽपि एकताबद्धतया सक्रियः भवितुम् सर्वान् अन्वरुणात्। प्रमुख प्रतिपक्षणो नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा अकथयत् राष्ट्रस्य सार्वभौम सत्तायाः राष्ट्रियैकतायाः अखण्डतायाश्च पक्षे राष्ट्रियैकतायाः सन्धारणम् अनुकूलमस्ति। सभापतिः देउवा सर्वकारेण आनीतं संविधान संशोधन विधेयकं राष्ट्रियहिते अस्तीति हेतोः संशोधन प्रस्तावः स्वदलेन पूर्णरूपेण समर्थितः इत्यवदत्। राष्ट्रिय जनता दलस्य सांसद राजेन्द्र महतो संविधानं प्रति स्वदलस्य असन्तुष्टो सत्यमपि नेपालस्य मानचित्रस्य परिवर्तनाय प्रस्तुते संविधान संशोधन प्रस्तावे पूर्ण समर्थनम् अस्तीति व्याहरन् हिमालय पर्वत तराई क्षेत्राणां सम्पूर्ण जनता स्वदेशं प्रति ऐक्यबद्धास्तीति सन्देशः अनेन उपवेशेन प्रदर्शयितव्यः इति चर्चयन् च लिम्पियाधुरा लिपुले कालापानी भूभागाः नेपालस्य सन्तीति मानचित्रे प्रदर्शयितुं संविधान संशोधनं समर्थितमिति समस्पष्टयत्। समाजवादी दलस्य सांसद उपेन्द्र यादव कस्मै अपि आहतीकरणस्य राष्ट्रियतायां प्रश्नोत्थापनस्य च कार्यं संसदा न विधातव्यमिति भासमाणः राष्ट्रियताया विषये दलम् एकस्मिन् एव स्थाने वर्तते देशभक्तौ राष्ट्रवादे च स्वीय दलं दृढमस्तीत्यतः समर्थनं विहितमिति धारणाम् उपस्थापयत्। राष्ट्रिय प्रजातन्त्र दलस्य सांसद राजेन्द्र लिङ्गदेन अभासत संविधान संशोधनं राष्ट्रियैकतायै सार्वभौमिकतायै अखण्डतायै च विहितम् अस्तीति त्यतः राष्ट्रिय प्रजातन्त्र दलस्य संविधान संशोधनस्य प्रस्तावे निःशपथं समर्थनमस्ति। राष्ट्रिय जनमोर्चा दलस्य सांसद दुर्गा पौडेलः प्रस्तावेऽस्मिन् स्वस्य दलस्य समर्थनं वर्तते इति भासमाणा कूटनीतिक प्रयत्नेन वार्तया च भूमेः प्रत्यावर्तनाय प्रयासः विधातव्यः एतेन असम्भवे अस्य विषयस्य अन्तर्राष्ट्रियकरणं विधाय अपि अग्रे वर्धयितुं परामृष्टवती। नेपाल मजदूर किसान दलस्य सांसद प्रेम सुबाल अतिक्रान्तया लिम्पियाधुरा भूम्या समाविष्टस्य नेपालस्य मानचित्रस्य सार्वजनिककरणम् नेपालस्य राष्ट्रियतायाः सार्वभौमिकतायाः अखण्डतायाश्च पक्ष स्थिति हेतोः एतत् समर्थितमिति अवोचत। उपवेशस्य प्रारम्भे सभामुखेन अग्निप्रसाद सापकोटा विधेन नियमानुसारेण संशोधन सम्बद्ध शपथस्य अपूर्णतायाः कारणात् संविधान संशोधन विधेयकस्य संशोधन प्रस्ताव अस्वीकृतोस्तीति ज्ञापितमासीत्। प्रतिनिधिसभायाः परोपवेश अध्य पूर्वाह्नस्य एकादश वादने वसति। प्रधानमन्त्री केपी शर्मा ओली निगदति नेपालस्य मानचित्रेण समाविष्टस्य संविधान संशोधन विधेयकस्य प्रतिनिधिसभातः पारितीकरणेन सैव अतपरम् अतिक्रान्ताया भूम्यः विषये भारतेन सह वार्ता विधास्यते। प्रतिनिधिसभाया ह्यस्तनोपवेशात् बहिः निष्क्रमणक्रमे पत्रकाराणां जिज्ञासायां प्रधानमन्त्री ओली अवोचत् संविधानस्य संशोधने सर्वसम्मतिः राष्ट्रियतायाः जनतायाश्च पक्षे शोभना विषयोऽस्ति। प्रधानमन्त्री ओली अगदत् संविधान संशोधनं सर्वसम्मतरूप पारितकृतं वर्तते अस्य विपक्षे न कोऽप्यस्तीत्यतः अतपरं भारतेन वार्ता भविष्यति। कालापानी लिपुलेख लिम्पियाधुराभिः समाविष्टस्य नेपालस्य मानचित्रस्य नेपालस्य संविधाने संशोध्य पारितकरणस्य प्रसन्नतायां गतदिने आराष्टं दीपप्रज्वलनं विहितम् अस्ति। नेपाली कांग्रेस दलेन अद्यावधि कृतस्य नूतन मानचित्रस्य संविधानस्य तृतीयानुसूच्यां समावेशनस्य अनन्तरं कालापानी क्षेत्रे नेपालस्य निर्बाधरूपेण अधिकारं स्थापयितुं उच्चस्तरीयेण कूटनीतिकरूपेण प्रयतितुं सर्वकारः अनुरुद्धो वर्तते। प्रमुख प्रतिपक्षो नेपाली कांग्रेस दलेन गतदिने विज्ञप्तिं प्रकाश्य लिम्पियाधुरा लिपुलेख कालापानी सहितस्य नेपालस्य मानचित्रस्य पारितीकरणेन सैव भूमि प्रत्यावर्तनस्य राष्ट्रियाभियानं द्वितीयचरणे प्रविष्टम् अस्ति। राष्ट्रियतायाः प्रश्ने एषा ऐक्यबद्धता महत्वपूर्णा च शीर्षत्यिति ज्ञापितं वर्तते। पर्वत जनपदस्य कुस्मा नगरपालिकायाः तृतीयवडा क्षेत्रवर्तिन्यां दुलुङ स्थितायां वसतौ गतरात्रौ दूरापन्नेन भूस्खलनेन नवजनाः पूरिताः सन्ति। वृष्ट्या सह दूरापन्नेन भूस्खलनेन दुर्लुङ ग्रामस्थिते ढकालबारी स्थाने गृहद्वयं प्रवाहितं सत् तत्र सुप्ताः गृहयोः सर्वे परिवाराः भूस्खलने पूरिताः सन्ति। वडाध्यक्षस्य तेजप्रसाद पाध्याय इत्यस्य अनुसारेण अद्यावधि त्रयसभाः प्राप्ताः षड्जनाः विलुप्ताश्च वर्तन्ते। नेपाले गतदिने अतिरिक्तेषु त्रिसप्तत्यधिक शतद्वय जनेषु कोरोना विषाणो संक्रमणस्य पुष्ट्या सैव नेपाले समग्रता कोरोना संक्रान्तानां जनानां संख्या पञ्चसहस्राणि पञ्चत्रिंशदधिक शतत्रयं च प्राप्ता वर्तते इति समाचारः।